स्नानं च दिव्यां वरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनं जाति चितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृतकल्पितम् गृहतां सौवर्णेन वरत्नखण्डरचिते पात्रे धृतं पायसं भक्षं पञ्चविधं पयोदधियुतम् रम्भाफलं पानकम् शाकानामयुतं जलं रुचिकरं विरचितं भक्ता प्रभु स्वीकुरु छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणा संकल्पेन समर्पितं तव विधो पूजां गृहाण प्रभो आत्मा त्वं गिरिजा चराः प्राणाः शरीरं गृहं पूजाते विषयोपभोगरचना निद्रा संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत् कर्म करो अखिलं चरण कृतं वा कायजं कर्मजं वा श्रवणानयनजं वा मानसं वा पराधं विहितम विहितं क्षमस्व जय जय करुणाब्धे श्रीमादेव शंभो श्री महादेव शंभो श्री महादेव शंभो।